शिवात्मानकम् शिवात्मानकम् श्रीरुद्ररूपम् ध्यायेत्। शुद्धस्फटिकसङ्घाशम् त्रिनेत्रम् पञ्चवक्त्रकम् गङ्गाधरम् दशभुजम् सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपवेदिनम् व्याघ्रजन्मोत्तरीयम् च वरेण्यमभयप्रदम् कमण्डलवक्षसूत्राणाधारिणम् शूलपानिनम् ज्वलन्तम् पिङ्गलजटाशिखामुद्योतधारिणम् वृषस्कन्धसमारोढम् उमादेहार्थधारिणम् अमृतेनात्मदम् शान्तम् दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् मे विश्वरूपिणम् एवम् ध्यात्वा द्विजः सम्यक् ततो यतनमारभेत्। अथातो रुद्रस्नानार्चनाभिषेकविधिम् व्याख्यास्यामः। आदित एव येच्छे स्नात्वा उदेत्य शुचिः रजतो ब्रह्मचारी शुक्रभाधा देवाभिमुखस्थित्वा आत्मनिदेवता स्थापयेत्। प्रजनने ब्रह्मा तिष्ठतु, पादयोर्विष्णुस्तिष्ठतु, हस्तयोर्हरस्तिष्ठतु, बाह्वो इन्द्रस्तिष्ठतु, जठरे अग्निस्तिष्ठतु, हृदये शिवस्तिष्ठतु, कण्ठे वसवस्तिष्ठन्तु, वक्त्रे सरस्वती तिष्ठतु, नासिकयोर्वायुस्तिष्ठतु, नयनयोश्चन्द्रादित्यौ तिष्ठेताम्, कर्णयोरश्विनौ तिष्ठेताम्, प्रभाते रुद्रास्तिष्ठन्तु, मूर्ध्नादित्यास्तिष्ठन्तु, शिरसि महादेवस्तिष्ठतु, शिखायाम् वामदेवस्तिष्ठतु, पृष्ठे पिनाकी तिष्ठतु, पुरतशूले तिष्ठतु, पार्श्वजो शिवाशङ्करो तिष्ठेताम्, सर्वतो वायुस्तिष्ठतु, ततो बहिः सर्वतोऽग्निज्वालामाला परिवृतस्तिष्ठतु, सर्वे शृङ्गेषु सर्वा देवता यथा स्थानम् तिष्ठन्तु, मागुम् रक्षन्तु। ॐ अग्निर्मे वाचिश्रितः वा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, दिशो मे श्रोत्रे श्रिताः श्रोत्रगुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, पृथिवी मे शरीरे श्रिताः शरीरकुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, ओषधि वनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, इन्द्रो मे मणे श्रितः मरकुम् हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, ईशानो मे मन्यो श्रितः मन्योर्हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, आत्मा मनात्मनि श्रितः आत्मा हृदये हृदयम् मयि अहममृते अमृतम् ब्रह्मणि, पुनर्महात्मा पुनरायुरागात् पुनर्थानः पुनरागोतमागात् वैश्वानरो रश्मिधर्मा वृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः ॐ अस्य श्रीरुद्राध्याय प्रश्नमहामन्त्रस्य अघोरऋषिः अनस्तुच्छन्दः सङ्गर्षणमोद्यश्वलोको योऽसावादित्यः परमपुरुषस्य रुद्रो देवता नमः शिवायेति बीजम् शिवधरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः दर्शपूर्णमासात्मने दर्जनेभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरोढमशुबन्धात्मने अनामिकाभ्यां नमः ज्योतिष्ठोमात्मने कनिष्ठिकाभ्यां नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषट् निरोढमशुबन्धात्मने कवचाय हुम् ज्योतिष्ठोमात्मने नेत्रत्रयाय भूषट् सर्वकृत्वात्मने अस्त्राय भट् भोद्भवस्वरोभिषिग्रन्थः ध्यानम् आपादालहस्तलान्तभुवनब्रह्माण्डमाविस्फुरज्योतिस्ताटिकलिङ्गमौलविलसत्पूर्णेन्दुमान्तामृतैः हस्तोकाप्लुतमेकमेशमनिशमुद्रानपाकाञ्जमण्डायेदीक्षिदयद्रुमलम् विप्रोभिरिन्द्रेक्षिवम् पीठम्यस्य धरित्रे जनधरकलशम् लिङ्गमाकाशमूर्तिम् नक्षत्रम् पुष्पमाल्यम् गहननकुसुमम् चन्द्रमह्यङ्गनेत्रम् कुक्षिः सप्तसमुद्रम् हिमगिरिशयनम् सप्तपादालपादम् वेदम् वक्त्रम् षडङ्गम् दशदिशि वसनम् दिव्यलिङ्गम् नमामि ब्रह्माण्डौ व्याप्तदेहाभसिदहिमरुजा भासमाला भुजङ्गैः कण्ठे कालाकमन्दा कलितशशिकला दण्डको दण्डहस्ताः त्रिलक्षारुद्राक्षमाला प्रकटितविभवा शाम्भवा मूर्तिभेदा रुद्रा श्रीरुद्रसूर्गप्रकटितविभवा न प्रयच्छन्तु सौख्यम् ॐ गणानात्वा गणपतिगुम्भवामहे कविम् कवीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रृण्वन्नो निभिस्येतसादनम् ॐ महागणपतये नमः ॐ संशमे मयश्च मे प्रियञ्च मे न कामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञातञ्च मे सोश्च मे प्रसोश्च मे शीरञ्च मे रजश्च मरुतञ्च मे मृतञ्च मे यक्ष्मञ्च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मे भयञ्च मे सुखम् च मे शयनम् च मे सूषा च मे सुदिनम् च मे ॐ शान्तिः 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 ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रपण्यबहुतो दिशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदवे नमः यादयश शिवतमा शिवम् बभूवते धनुः शिवाचव्यायातपदयानो रुद्रमृडया याते रुद्रशिवातनोरघोरापापकाशिनी तया नस्तनुवाशन्दमया गिरिषन्दाभिचाकशीः यामिषङ्गिरिषन्दमस्ते विभर्षस्तवे
शिवांगे प्रदांगुरुमाहितं सेवपुरुषं जगत् शिवेन रजसाद्भाग्यदिशाच्छावदामसि यथा नः सर्वमिज्जगदयक्ष्मकं सुमहास अध्यवो जदधिभक्ता प्रथमोधेराभिषग् अहेजश्च सर्वाल्यम्भयं सर्वास्तयानुधान्यः असौयस्ताम्रवरुणबुधवभ्रस्वमङ्गलः ये चेमागं वृद्धाभितो यक्षश्रिता सहस्रशो वै साम्भेण धीमहि असंयोपसर्वदिनीलग्रीवो विलोहितः उभेनं गोपादृशन्नदृशन्नदार्या उभेनं विश्वाभूतान्यसदृष्टो मृणयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय पीडुके अथो ये अस्य सत्त्वानोहन्येभ्यो करं नमः प्रमलमुञ्चन्मनस्तमभयोराग्नियोज्या यास्त देहस्तैषवः पराता फलवोपप अवतत्तधनस्त्वकं सहस्राक्षशदेशुधे विशेद्यशल्यानां शिवो नः सुमना भव विद्यन्धनकपद्यनो विशल्यो मानवागुम्भुत अनेशन्नः शेषव आभुरस्य निषङ्गतिः या ते हे धर्मे भक्तमहस्ते बभूमते धनुः स्वान् विश्वतस्त्वमयक्ष्मया परिभ्रुया नमस्ते अस्त्वायुधायाना तदाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्यान्तपधन्मने परिदे धन्मनो हेजनस्मान् प्रणक्तु विश्वतः अथो यदि सुधिस्तवारे अस्मन्निधे हितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाञ्चपदये नमो नमो वृक्षेभ्यो पशूनां पदये नमो नमः सस्मिञ्जलाय त्रिषेमदेवसेनां पदये नमो नमो वगृहाय व्याधिनेन्नानां पदये नमो नमो हरिनेयायोपवीतिने मुष्टानां पदये नमो नमो भवस्य हेत्ये जगतां पदये नमो नमो रुद्राय तथाविने क्षेत्राणां पदये नमो नमः सूताय हन्ताय वनानां पदये नमो नमो रोहिदायस्थपदये वृक्षाणां पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पदये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पदये नमो नमः उच्चैर्घोषाय कन्दय देवद्येनां पदये नमो नमः कृत्स्नवेदाय धावते सत्त्वनां पदये नमः नमस्सहमानाय दिव्याधिनः व्याधिनीनां पदये नमो नमः प्रकृभाय निषङ्गिनेस्तेनानां पदये नमो नमो निषङ्गिनयुषुधिमजे तस्करानां पदये नमो नमो वञ्चते परिवञ्चनेस्तायूनां पदये नमो नमो निषेदने परिचरायारण्यानां पदये नमो नमस्थिताभ्यो युधागं सद्भ्योमुष्णतां पदये नमो नमो शिरद्भ्यो नक्तञ्जलभ्यप्रकृन्दानां पदये नमो नमः उष्णेशिने गिरिजराय कुलुञ्जानां पदये नमो नम युषमद्भ्योदन्वाविभ्यस्तभो नमो नम आदन्वानेभ्यप्रतिदधानेभ्यस्तभो नमो नम आयच्छद्भ्यो सुदद्भ्यस्तभो नमो नमोऽस्यद्भ्यो विद्भ्यद्भ्यस्तभो नमो नम आसीनेभ्यक्षयानेभ्यस्तभो नमो नमः स्वभद्भ्यो दाभ्यद्भ्यस्तभो नमो नमस्तुच्छद्भ्यो धामद्भ्यस्तभो नमो नमः सभाभ्यः सभाबलिभ्यस्तभो नमो नमो अश्वेभ्योऽश्वपदिभ्यस्तभो नमः नमः व्याजिनेभ्यो विविध्यन्तेभ्यस्तभो नमो नमः गुणनाभ्यस्तकम्भलेभ्यस्तभो नमो नमो वृक्षेभ्यो वृत्सपदिभ्यस्तभो नमो नमो भ्रातेभ्यो भ्रातपदिभ्यस्तभो नमो नमो गणेभ्यो गणपदिभ्यस्तभो नमो नमो विरूपेभ्यो विश्वरूपेभ्यस्तभो भो नमो नमो ऋषिभ्यो चेभ्यश्चो नमो नमो ऋषेभ्यो सरसिभ्यश्चो नमो नमः सेनाभ्यः सेनानिभ्यश्चो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्चो नमो नमश्चक्षद्वारतकालेभ्यश्चो नमो नमः कुणालेभ्यः कर्मालेभ्यश्चो नमो नमः पुञ्जिष्ठेभ्यो नमो नमो नम यशकृद्भ्यो धन्वकृद्भ्यश्चो नमो नमो मृगयुभ्यश्वनिभ्यश्चो नमो नमः श्वभ्यश्वभ्यश्चो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शुचिकण्ठाय च नमः कपद्यने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्मने च नमो यविषाय च शिविभिष्टाय च नमो मेभृत्तमाय जेरुमते च नमो ह्रस्वाय च वामनाय च नमो गृहणे च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आधवेदाजिराय च नमः शीघ्रियाय च शीघ्राय च नमः पूर्व्याय धावस्वन्याय च नमः स्रोतस्याय च दीप्याय नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापदाय च नमो मध्यमाय चापकल्पाय च नमो जघन्याय च बुद्धयाय च नमः स्वाभ्याय च प्रतिसर्याय च नमो याम्नाय च क्षेम्याय च नमः पूर्वर्याय च कल्याय च नमः श्लोक्याय चापसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुसेनाय चासुरथाय च नमः शूराय चापविन्दने च नमो वर्मिणे च वरोषिणे च नमो बिल्विणे च कपचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय दाहनन्याय च नमो धृष्णवे च प्रमृताय च नमो गोदाय च प्रहिताय च नमो निषङ्गिणे जयतिमते च नमस्तेक्ष्णे रवेदायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्वच्छाय च पच्चाय च नमः पाद्याय नेद्याय च नमः सूद्याय च वदस्याय च नमो नाद्याय च वैषन्द्राय च नमः कोप्याय दावत्याय च नमो वश्याय च वर्ष्याय च नमो मेघ्याय च विद्युद्याय च नमः जीघ्रियाय च तप्याय च नमो वाद्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमः स्थाम्राय चारुणाय च नमः शङ्खाय च पशुपतये च नमः मुद्राय च भीमाय च नमो अग्रे मधाय च दूरे मधाय च नमो हन्त्रे च हनीयते च नमो वृक्षेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कौल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च धार्याय च नमः षष्ट्याय च फेण्याय च नमः सिगत्याय च प्रभात्याय च नमः जरण्याय च प्रपत्याय च नमः त्रिगुंशिनाय च क्षयनाय च नमः कपद्मिने च पुनस्तये च नमो गोष्ठ्याय च कृष्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च कक्षरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय दोलप्याय च नमः भूम्याय च सोम्याय च नमः पर्याय च पर्णशब्दाय च नमो मघुरमानाय च विघ्नदे च नमः आक्षिपदे च प्रक्षिपदे च नमो वक्षिणिके देवाहृदये द्वो नमो विच्छेदके द्वो नमो विचिन्दके द्वो नमः आनिर्हले द्वो नमः मीभक्तेभ्यः प्रभावे अन्धसस्पदे दरिद्रन्नीलोहित येषाम् पुरुषाणाम् येषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्च नाममत् ज्ञातेरुद्रशिवातनो शिवा विश्वाः भेषजि शिवारुद्रस्य भेषजि तया नो मृडदेवसे इमागम् रुद्राय तमसे कपद्मिने क्षयद्वीराय प्रभरामहे मतिम् यथानश्रमसद्विपदे चतुष्पदे विश्वम् पुष्टम् चापे अस्मिन्ननादुरम् वृणानारद्रोतमयस्कृतिर्जयत्तीराय नमः विधेमते यच्छन्दयासमनुराय जयपितारदस्यापदवदप्रणीतौ मानो महान्तमुदमानो अध्वगम् मानवक्षन्तमुदमानवक्षितम् मानवधे पितरम् मोदमातरम् प्रयामानस्तनवरुद्रवेदः मानसो वेतनये मान आयुषि मानो गोषु मानो अश्वेदुरेदः वीरान्मानो रुद्रभाविदो वधे अयुष्मन्दो नमसा विधेमते आराध्य गोर्धमुदपूरषग्ने क्षयद्वीराय सुन्नमस्ते ते अस्तु रक्षाजनो अधिजदेव प्रोह्यधाजनः शर्म यच्छत्युवर्हाहिश्रुनङ्गद्धसदैयमानम् मृगन्न भीममुपहत्नमुग्रम् मृणाय रित्रे रुद्रस्तवानो मन्यन्ते अस्मन्निव मन्तु सेनारिणो रुद्रस्य हेतर्वृणक्तपरिद्वेषस्य दुर्मतिरथायो अवस्थिरामघवद्भ्यस्तनुश्रमेभ्यस्तोपायतनयाय मृणय वीरुष्टमशिवतमशिवो न सुमना भव परमे वृक्षायुधम् निधाय कृत्यम् वदानाचर पिनाकम् विप्रदातिर्गविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्भेदयोजमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोस्तवहेतयः ताः मेधानो भगवत्पराजीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रादिहोम्याः देशाकम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महद्यर्नवेन्द्रदिक्षे भवादि नीलग्रीवाशिनिकण्ठाः सर्वादः क्षमाजलाः नीलग्रीवाशिनिकण्ठाजवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जनः नीलग्रीवाविरोहिताः ये भूतानामधिपतयो दुशिकासक्तपद्मिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनान् ये पथाम्पतिरक्षयैलभृधायौयुधः ये रेधानि प्रचलन्निषु तावन्दानि सङ्गिनः ये तावन्दश्च भूयागुंसस्तदिशोदकामितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यायेत्तरिक्षे ये धिभिरे रामन्नम् बालो वर्षमिषमस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रदेशेतको देशेतशोद्भास्तेभ्यो नमस्ते नामृणयम् तुलेयम् विष्णोयश्च नोत्रे स्थिरम् वोढम् भेदराणि प्रियम् वगेयजामहे सुगन्धिम् पुष्टिवर्धनम् पूर्वानुगमिदबन्धना मृत्योर्मुक्षीयमावृतात् यो रुद्रो हक्तो यो हप्सुयमोषदेशयो रुद्रो विश्वाभुवनारिवेशतस्मे रुद्राय नमोऽस्तु नमोऽस्तु हियस्विशस्व धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेतो मनसाय रुद्रन्नमोऽप्यत्येवमसुरन्दोस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेदयोयतुम् शिवाभिमर्जनः एके सहस्रमयुधम् पासामृत्यो मत्याय हन्तवे प्राधिज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानाम् ग्रन्थिरति रुद्रो मामि स्वान्तकः तेनान्येनाप्यायस ॐ शान्ति शान्ति शान्तिः ॐ आत्मा विश्वासजोषसे मानद्वन्द्वभाङ्गिरः युम्नेवाजभिरागतम् वाजश्च मे प्रथमश्च मे प्रयतिश्च मे प्रसृतिश्च मे स्वरश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुतश्च मे प्राणश्च मे पाणश्च मे ज्ञानश्च मे सुश्च मे चित्तं च महाधीनं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च महोदश्च मे सहस्रमायुश्च मे जरा च महात्मा च मे धनुश्च मे जन्म च मे वर्म च मे अङ्गानि च मे स्थानि च मे परोगंसि च मे शरीरानि च मे देशं च महाधिपत्यं च मे मन्यश्च मे भामश्च मे मश्च मे भश्च मे देवा च मे महिमा च मे भजिमा च मे प्रतिमा च मे भस्मा च मे कार्या च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगश्च मे धनं च मे वशश्च मे ऋषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यश्च मे सुखं च मे सुवसं च मरुद्धं च मरुद्धिश्च मे कृतं च मे कृतिश्च मे मतिश्च मे सुमतिश्च मे सञ्च मे मयश्च मे प्रियं च मे लोकामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे रस्यश्च मे यशश्च मे मगश्च मे प्रविणं च मे यन्ता च मे भर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे नयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सोषा च मे सुजनं च मे ऊर्च मे सोहृदा च मे वयश्च मे रसश्च मे घृतं च मे अभुज मे सख्यश्च मे सतेजश्च मे कृषिश्च मे वृष्टिश्च मे एत्रं च महोद्धृत्यं च मे दधिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षिभिश्च मे भूयवास्त मे नं च मे पृष्ट मे विहयश्च मे यवास्त मे माषास्त मे धिरास्त मे मुद्रास्त मे खल्वास्त मे गोधूमास्त मे वसुरास्त मे प्रियङ्गमश्च मे नवश्च मे श्यामाकास्त मे नीवारास्त मे अस्मात् मे मृत्तिकाश्च मे गिरयश्च मे पर्वतास्त मे शिखरास्त मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे तपुश्च मे श्यामं च मे रोहं च मे अग्निश्च महापश्च मे विरुधश्च ममोषधयश्च मे कृष्णपक्षं च मे कृष्णपक्षं च मे ग्राम्याश्च मे यज्ञेन कल्पन्ता वित्तं च मे विद्धिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च मयेमश्च मयितिश्च मे गतिश्च मे अग्निश्च महिन्द्रश्च मे सोमश्च महिन्द्रश्च मे सविता च महिन्द्रश्च मे सरस्वती च महिन्द्रश्च मे पूषा च महिन्द्रश्च मे बृहस्पतिश्च महिन्द्रश्च मे मित्रश्च महिन्द्रश्च मे वरुणश्च महिन्द्रश्च मे त्वष्टा च महिन्द्रश्च मे धाता च महिन्द्रश्च मे विष्णुश्च महिन्द्रश्च मे श्विनौ च महिन्द्रश्च मे मरुदश्च महिन्द्रश्च मे विश्वे च मे देवायन्द्रश्च मे पृथिवी च महिन्द्रश्च मेऽन्तरिक्षं च महिन्द्रश्च मे द्यौश्च महिन्द्रश्च मे दिशश्च महिन्द्रश्च मे मूर्धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे पुरुषश्च मे रश्मिश्च मे दाहात्यश्च मेधिपतिश्च मवुपापुंसश्च मे तर्जामश्च मलैन्द्रवायवश्च मे मेषावरुणश्च महाश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्री च महाग्रजनश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदग्रहास्य ग्राह्यास्तमहेन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयास्त मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे भोष्णश्च मे वाग्देवतश्च मे हारिलोचनश्च मे विध्वस्त मे बर्हिस्त मे वेदिश्च मे निष्णयास्त मे श्रुतस्त मे समसास्त मे क्षामानस्त मे स्वरवस्त मुपरवास्त मे ऋषभनेत मे द्रोणकलशस्त मे वायव्यादित मे भूतपृच्च महाधमनीयश्च महात्मेन्द्रञ्च मे हविद्धानन्द मे गृहास्त मे सदश्च मे पुरोणाशा भजदास्त मे बभृदस्त मे स्वराकारश्च मे अग्निश्च मे हर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे जितिश्च मे दितिश्च मे द्यौश्च मे शक्परे अङ्गुलज्योतिषश्च मे यज्ञेन कल्पन्धाम्रक्ष मे शाम च मे स्तोमश्च मे यजश्च मे दीक्षा च मे तपश्च मरुदश्च मे व्रतम् च मे होरात्रयो ृहद्रसन्तरे च मे यज्ञेन कल्पेत गर्भाश्च मे वत्साश्च मे द्रविश्च मे द्रवी च मे दिव्यमाच्च मे दिव्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यमाच्च मे तुर्यौहे च मे पष्ठमाच्च मे पष्ठौहे च मुक्षा च मे वशा च मर्धभश्च मे देहश्च मे धग्नाश्च मे धेनश्च महायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् बाणो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् दुःश्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् यज्ञेन कल्पतामात्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पता एकाद मे तिस्रश्च मे पञ्चत मे सप्त मे नव च मयेकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मयेकविपुंसतिष्ठ मे त्रयोविपुंसतिष्ठ मे पञ्चविपुंसतिष्ठ मे सप्तविपुंसतिष्ठ मे नवविपुंसतिष्ठ मयेकत्रिपुंसच्च मे त्रयस्त्रिपुंसच्च मे चतस्रश्च मे स्तोद मे द्वादश च मे षोडश च मे विपुंसतिष्ठ मे चतुर्विपुंसतिष्ठ मे अष्टाविपुंसतिष्ठ मे द्वात्रिपुंसच्च मे षत्रिपुंसच्च मे चत्वारिपुंसच्च मे चतुश्चत्वारिपुंसच्च मे अष्टाचत्वारिपुंसच्च मे पादश्च प्रथमश्चाभिरश्च क्रतुश्च सुरश्च ओर्ध्वानव्यस्तेऽष्टान्ध्यायनश्चान्ध्यश्च भुवनश्च भुवनश्चाधिपतिश्च ृक्षामदाजसगुंसिषद्विश्वे देवासोक्तवाचः पृथिविमा धर्मा मारिगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमदे देवेभ्यो वाचमद्याजगं शुश्रूषेण्या मनुष्येभ्यस्तम्मा